श्रीगुरुभ्यो नमः हरिः ॐ ब्रह्ममेतु मां मधुमेतु मां ब्रह्ममेव मधुमेतु मां यास्ते सोमप्रजा वत्सोभिसो अहं दुष्वप्नहन्दुरुष्यः यास्ते सोमप्राणागस्ताञ्जुहोमि त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् ब्रह्महत्यां वा एते घ्नन्ति ये ब्राह्मणास्त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्ति असहस्रात् पङ्क्तिं पुनन्ति ॐ ब्रह्ममेधया मधुमेधया ब्रह्ममेव मधुमेधया अद्यानो देवसवितः प्रजावत्सावीः सौभगं परा दुष्वप्नियगं सुवा विश्वानि देवसवितर्दुरितानि परा सुवा यद्भद्रं तन्म आसुवा मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः माध्वी ईर्नः सन्त्वोषधीः मधुनक्तमुतोषसि मधुमत्पार्थिवगुं रजः मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमागुम् अस्तु सूर्यः माध्वीर्गावो भवन्तु नः य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् भ्रूणहत्यां वा एते घ्नन्ति ये ब्राह्मणास्त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्ति असहस्रात् पङ्क्तिं पुनन्ति ॐ ब्रह्ममेधवा मधुमेधवा ब्रह्ममेव मधुमेधवा ब्रह्मदेवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणां श्येनो गृध्राणागस्वधितिर्वनानागुं सोमः पवित्रमत्येतिरेभन् अगुंसशुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् दृषद्वरसदृतसद्व्योमसदब्जागोजारुतजा अद्रिजा ऋतं बृहत् रुचेत्त्वा रुचेत्त्वा समित्स्रवन्ति सरितो नधेनाः अन्तर्हृदा मनसा पूयमानाः घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्य आसाम् तस्मिन् सुपर्णो मधुकृत्कुलायी भजन्नास्ते मधुदेवताभ्यः तस्या सते हरयः सप्ततीरे स्वधान्दुहान अमृतस्य धाराम् य इदं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् वीरहत्यां वा एते घ्नन्ति ये ब्राह्मणास्त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्ति असहस्रात् पङ्क्तिं पुनन्ति ॐ ॐ शान्ति शान्ति शान्तिः।